एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। सर्वकारेण संघीय संसदः द्वयोः सदनयोः संचल्यमानाधिवेशनस्य अद्यतः अन्त्याय निर्णीतमस्ति। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य उपविष्टेन मन्त्रिपरिषदः उपवेशेन संघीय संसदः द्वयोः सदनयोः संचल्यमानाधिवेशनस्य अद्य रात्रौ द्वादशवादनात् अन्त्याय राष्ट्रपतेः समक्षं परामृष्टुं निर्णीतमस्ति इति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ असूचयत्। एवमेव मन्त्रिपरिषदः उपवेशेन स्थानीय स्तराणां रिक्तानां एकोनचत्वारिंशः पदानां कृते एतत् विक्रमवर्षीयस्य मार्गशीर्ष मासस्य षोडश दिवसे रविवासरे निर्वाचनं विधातुं निर्णीतमस्ति इति प्रवक्ता मन्त्री गुरूङ अज्ञापयत्। तत्पूर्वं प्रधानमन्त्रिणे केपी शर्मा ओलीले निर्वाचनायोगस्य प्रमुखायुक्तेन दिनेश कुमार थपलिया सहितै पदाधिकारीभि ह्य आगामिनः मार्गशीर्ष मासस्य षोडश दिवसे रविवासरे स्थानीय स्तरस्य उपनिर्वाचनस्य दिनं निर्धारयितुं परामृष्टम् आसीत्। प्रधानमन्त्री केपी शर्मा ओली उत्पादनाय उत्पादनमूलक क्षेत्राय च प्राथमिकतां प्रदातुं गृहभूमि व्यवसायिनः अनुरोणद्धि। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य नेपाल भूम्यावास विकास संघस्य ज्ञापनपत्रं गृह्णन् प्रधानमन्त्री ओली अर्थतन्त्रं गतिशीलं विधातुं निर्यातस्य वर्धनत्वेन उत्पादनमूलके कार्ये प्रवर्तयितुं बलं प्रादात्। प्रधानमन्त्री ओली वसतये आवश्यक गृहभूमि व्यवसाये नियमित रूपेण जायमानेऽपि अधिकेन निवेशेन निर्मितानाम् आवास भवनानां रिक्तायाः स्थितेः दर्शनात् ततः तात्कालिकं प्रतिफलं न लभ्यते इति समस्पष्टयत्। प्रधानमन्त्री ओली व्यवसायममुं व्यवस्थितं विधातुं जनतायाः विकासेन सह संयोजितेषु विषयेषु विधेः आवश्यक सुधाराय सर्वकारेण प्रयासः विधीयते इति प्रतिबद्धताम् अभिव्यनक्। प्रतिनिधिसभायाः ह्यस्तनोपवेशः दलेषु सहमतेः अधरणात् प्रभावितो वर्तते। माओवादी केन्द्रेण एमाले दलस्य सांसदेन योगेश भट्टराई इत्यनेन प्रयुक्तं माओवादी हिंसा शब्दं संसदः अभिलेखालयात् अपाकर्तुम् अभियाच्य संसदः अवरोध सर्जनस्य पश्चात् ह्यस्तन दिवसाय निर्धारित उपवेशः अद्य दिवा एकवादनाय आहूतो वर्तते। राष्ट्रिय सभायाः ह्यस्तनोपवेशेन उनाशीत्युत्तर द्विसहस्रतम विक्रम वर्षीयस्य नेपाल विश्वविद्यालय विधेयकस्य सम्बन्धे प्रतिनिधिसभातः विहिते संशोधने सहमतिं धर्तुं प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। उपवेशे शिक्षा विज्ञान प्रविधि मन्त्रिणा विद्या भट्टराई इत्यनया प्रस्तुतः प्रस्तावोऽयं सर्वसम्मत्या स्वीकृतो वर्तते। राष्ट्रियसभायाः ह्यस्तनोपवेशे सप्तसप्तत्युत्तर द्विसहस्रतमं सार्वजनिक सेवा प्रसारण विधेयकं प्रस्तुतमस्ति। राष्ट्रियसभायाः सचिवः डा सुरेन्द्र अर्यालः प्रतिनिधिसभायां प्रेषितस्य सार्वजनिक सेवा प्रसारण विधेयकस्य सम्बन्धे प्राप्तं सन्देशं सभा समक्षं विज्ञापितवान्। एवमेव उपवेशे अर्थमन्त्री विष्णु प्रसाद पौडेलः दलित समुदायस्य स्थानीयस्य शिल्पस्य ज्ञानस्य व्यवसायस्य च आधुनिकीकरणं विधातुं वित्तं विनियोजितमस्ति इति असूचयत्। सांसदाः पर्वोत्सवानां सन्निधौ खाद्यवस्तुषु यातायातेषु च अनियन्त्रिताया जायमानायाः मूल्यवृद्धेः नियन्त्रणाय अनुगमनार्थं सर्वकारस्य ध्यानम् आकृष्टवन्तः। राष्ट्रियसभायाः अपरोपवेशः अद्य सपादैकवादने वसति। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षम् अधिकार दुरूपयोगानुसन्धानायोगेन गतार्थिकवर्षस्य वार्षिकं प्रतिवेदनं प्रस्तुतं वर्तते। शीतल निवासवर्तिनी राष्ट्रपति कार्यालये ह्य आयोजिते कार्यक्रमे राष्ट्रपतेः समक्षम् आयोगस्य प्रमुखायुक्तः प्रेमकुमार राई वार्षिकं प्रतिवेदनं प्रास्तौत्। प्रतिवेदनं गृह्णन् राष्ट्रपतिः पौडेलः देशे सुशासनं संस्थाप्य भ्रष्टाचारजन्यापराधस्य अनुसन्धानस्य कार्यं वैज्ञानिकीं तथ्यपरकं परिणाममुखी च सम्पादयितुम् आवश्यकता अस्तीति अवोचत्। राष्ट्रपतिः पौडेलः आयोगेन स्वस्य सांविधानिक दायित्वस्य पूरणस्य सन्दर्भे विहितानि कार्याणि समाविश्य निर्मिते प्रतिवेदने उत्थापितानां महत्वपूर्णानां विषयाणां सर्वकारेण प्रभावकारितया सम्बोधनं करिष्यते इति विश्वासं व्यक्तवान्। तदवसरे प्रमुखायुक्त राई आयोगाय प्राप्तेन सांविधानिक दायित्वेन सह भ्रष्टाचारं नियन्त्र्य सुशासनस्य प्रवर्धनस्य राज्यस्य नीतेः निष्पक्षं तटस्थो भूत्वा क्रियान्वयनाय आयोगः प्रतिबद्धोऽस्तीति प्रावोचत्। प्रतिवेदनार्पणस्य पश्चात् काष्ठमण्डपे पूर्वेद्युः आयोजिते पत्रकार सम्मेलने आयोगस्य प्रवक्ता नरहरि घिमिरे आयोगे प्राप्तेषु निवेदनेषु सर्वाधिकं संघीय विषय सामान्य प्रशासन मन्त्रालयेन स्थानीय स्तरैश्च सह सम्बन्धेषु विषयेषु आसन्न प्रतिशतं चत्वारिंशता सन्तीति असूचयत्। आयोगेन गतार्थिक वर्षे 1545 च जनानां विरूद्धे विशेष न्यायालय भ्रष्टाचार जन्य अपराध सम्बद्धानि न्यायिक प्रकरणानि पञ्जीकारितानीति प्रवक्ता घिमिरे अज्ञापयत्। राष्ट्रिय सभान्तर्गतयो रिक्तयो द्वयो समित्यो सभापति पदस्य निर्वाचनस्य कृते त्रय सांसद प्रत्याशितां पञ्जीकृतवन्त सन्ति। उपरितनस्य सदनस्य विधायन व्यवस्थापन समिति सभापति पदस्य कृते ह्य नेकपा एकीकृत समाजवादी दलस्य सांसद जयन्ती देवी राई नेकपा एमाले दलस्य सांसद तुलसा कुमारी दाहालस्य प्रत्याशिताया पञ्जीकरणम् अकुरुताम्। एवमेव सार्वजनिक नीति प्रत्यायोजित विधायन समिति सभापति पदे नेकपा माओवादी केन्द्रस्य सांसद माया प्रसाद शर्मा प्रत्याशितां पञ्जीकृतवान् अस्ति। राष्ट्रिय सभा अन्तर्गतयो विधायन व्यवस्थापन सार्वजनिक नीति प्रत्यायोजित व्यवस्थापन समित्योः कार्यकाल अशैव भाद्रमासस्य त्रयोविंशे दिवसे समाप्त आसीत्। राष्ट्रिय सभायाः गत मंगलवासरस्योपवेशे अध्यक्ष नारायण प्रसाद दाहाल रिक्तयोः द्वयोः समित्योः सभापति पदस्य निर्वाचनम् अद्य सम्पादयितुं संघीय संसद सचिवालयाय निर्दिष्टवान् आसीत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ वर्तमानार्थिक वर्षस्य कृते निर्धारितस्य लक्ष्यस्य उत्कृष्ट परिणामस्य प्राप्तित्वेन कार्य सम्पादनं विधातुं मन्त्रालयं एतदन्तर्गतान् निकायान् च निर्दिशति। वर्तमानार्थिक वर्षस्य कार्य सम्पादन संविधायाः विधानस्य पश्चात् ह्य मन्त्रालयं तदन्तर्गत निकायान् च निर्दिशन् निर्देशन संचार मन्त्री गुरूङ सर्वकारस्य नीति कार्यक्रमाणां वार्षिकाय व्ययकस्य आवधिक योजनातश्च निर्धारितं लक्ष्यं प्राप्तुं उत्कृष्ट कार्य सम्पादनेन सह स्वस्य दायित्वं निष्ठया पूरयितुं निरदिशत्। तदवसरे मन्त्री गुरूङ सर्वकारेण प्रथमशतं दिनानि द्वितीयशतं दिनानि तथा अवशिष्टानि पञ्चषष्ट्यधिकशतं दिनानि चेति कृत्वा स्वस्य कार्यस्य समीक्षणत्वेन कार्य सम्पादन संविधा विहिता अस्तीति असूचयत्। दोलखा जनपदस्य गौरीशंकर ग्रामपालिकायां ह्य जीपयान दुर्घटनायां द्वौ जनौ मृतौ स्तः। दोलखा जनपदस्य सिंगटी आपणात् गौरीशंकर ग्रामपालिकां प्रतिगच्छत् जीपयानं चतुर्थ ओडा क्षेत्रस्य कोठीडाँडा स्थाने दुर्घटितं स द्वौ जनौ मृतौ इति दोलखा जनपद प्रहरी कार्यालयस्य प्रमुख प्रहरी नायब उपरीक्षकः युवराज खड्का अज्ञापयत्। दुर्घटनायां गौरीशंकर ग्रामपालिकायाः तृतीय ओडा क्षेत्रस्य झ्याकुस्थानस्य 75 वर्षीया काली शेर्पा 55 वर्षीय पासी शेर्पा च वर्तेते इति प्रहरिणा ज्ञापितमस्ति।